आभोजं वः प्रथमं देवयं च इन्द्रपानमूर्तिमरुन्दतेनः अम्बो भयं शुचिमरित्रमद्यघृतपृषं मधुमन्तं वनेम तमूर्मिमा वो मधुमत्तमं भोपान्नपादवत्त्वा सुयेमा यस्मिन्निन्द्रो वसुभिर्मादया ते तमस्यामदे भयं तो वो अद्य शतपवित्रा सुधया मदन्तीर्देवीर्देवानामपि यन्ति पाथाः आ इन्द्रस्य नमीनन्ति व्रतानि सिन्धुभ्यो हव्यम् हृतवज्जुहोत या सूर्यो रश्मिभिराधता नजाभ्यजिन्द्रो अरदद्धातुमूर्मिम् येन्द्रवोपरि वो धातमानो यूयम् पादस्वस्तिभिः सदा नः